ॐ शन्नो मित्रश्यं वरुणः शन्नो भवद्वर्यमा शन्न इन्द्रो बृहस्पतिः शन्नो विष्णुरुक्रमः नमो ब्रह्मणे नमस्ते वायो त्वमेव प्रत्यक्षं ब्रह्मासि त्वमेव प्रत्यक्षं ब्रह्म वदिष्यामि ऋतं वदिष्यामि सत्यं वदिष्यामि तन्मामवतु तद्वक्तारमवतु अवतु माम् अवतु वक्तारम् ॐ शान्ति शान्ति शान्तिः सकना भवतु सकलौ भुनस्तु सह वीर्यङ्करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहैः ॐ शान्ति शान्ति शान्तिः यच्छन्दताम् ऋषभो विश्वरूपः छन्दोऽभ्योद्यमृताः सं बभूव समेन्द्रो मेधयाः शृणोतु अमृतस्य देवधारणो भूयासम् शरीरम् मे विदर्शनम् जिह्वा मे मधुमत्तमा कर्णाभ्याम् भूरिविश्रुमम् ब्रह्मणः कोशोऽसि मेधया पिहित श्रुतम् मे गोपाय ॐ शान्ति शान्ति शान्तिः अहम् वृक्षस्य रेणिव कीर्तिपृष्ठम् गिरेरिव ऊर्ध्वपवित्रो वाजिनीव स्वमृतमस्मि द्रविणतुम् समर्चतम् सुमेधा अमृतोक्षितः इति त्रिशङ्कोर्वेदानुवचनम् ॐ शान्ति शान्ति शान्तिः पूर्णमदः पूर्णमिदम् पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्ति शान्ति शान्तिः आप्यायन्तु ममाङ्गानि वा प्राणश्चक्षुश्रोत्रमतोबलमिन्द्रियाणि च सर्वाणि सर्वम् ब्रह्म उपनिषदम् माहम् ब्रह्म निराकुर्याम् मामाम् ब्रह्म निराकरोत् अनिराकरणमस्व निराकरणम् मे अस्तु सदात्मनि निरतेयमुपनिषत्सु धर्मास्ते मयि सन्तु ते मयि सन्तु ॐ शान्ति शान्ति शान्तिः वाम् मे मनसि प्रतिष्ठिता मनो मे वाचि प्रतिष्ठितम् आविराविर्मयेजी वेदस्य महानीतः श्रुतम् मे मा प्रभातीः अनेनाधीतेन अहोरात्रान् सन्ददामि ऋतम् वदिष्यामि सत्यम् वदिष्यामि तन्मामवतु तद्वक्तारमवतु अवतु माम् अवतु वक्तारमवतु वक्तारम् ॐ शान्ति शान्ति शान्तिः भद्रम् नो अतिवाचय मनः ॐ शान्ति शान्ति शान्तिः भद्रम् कर्णे विश्वयामदेवाः भद्रम् पश्येनाक्षभिर्यजत्राः स्थिरनिरन्तैः सुष्ठुमागुन्दस्तनोभिः व्यचेम देवहि संयदायुः स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः स्वस्ति नः साक्षो हरिष्टनेभिः स्वस्ति नो बृहस्पतिर्ददातु ॐ शान्ति शान्ति शान्तिः। यो ब्रह्माणं विदधाति पूर्वं यो वै वेदांश्च प्रगिणोति तस्मै सगुंहदेवमात्मबुद्धिप्रकाशं मुमुक्षुर्वै शरणमहं प्रपद्ये। ॐ शान्ति शान्ति शान्तिः। श्रुतिस्मृतिपुराणानाम् आलयं करुणालयं नमामि भगवत्पादं शङ्करं लोकशङ्करं शङ्करं शङ्कराचार्यं केशवं बालरायणं। सूत्रभाष्यकृतौ वन्दे भगवन्तौ पुनः पुनः नारायणं पद्मभुवं वसिष्ठं शक्तिं च तत्पुत्रपराशरं च ज्ञातं शुकं गौडपदं महान्तं गोविन्दयोगीन्द्रमदाश्रशिष्यम् श्रीशङ्कराचार्यमदास्य पद्मपादं च हस्तामलकं च शिष्यम् सन्तोटकं वार्तिककारमन्यान् अस्मद्गुरुं सन्ततमानतोऽस्मि। ओमाणीराशक्ते तनोति शुभसन्ततिम् स्मृतिमात्रेण यत्पुंसाम् ब्रह्म तन्मङ्गलम् परम् अतिकल्याणरूपत्वात् नित्यकल्याणसंश्रयात् स्मर्तॄणाम् वरदत्वात् च ब्रह्म तन्मङ्गलम् विदुः। ओङ्कारश्चाब्दशब्दश्च द्वावेतौ ब्रह्मणः पुरा कण्ठम् भित्त्वा विनिर्यातौ तस्मान्मान्वयिवाबुभौ। ॐ